त्वं नाथ जन्म जलधर विपराङ्मुखोऽपि यत्तार्यस्य सुमतो निजपृष्ठलग्नान् युक्तं हि पार्थिव निपस्य सतस्तवैव चित्रं विभो यदसि कर्म विपाकशून्यः त्वं नाथ जन्म जलधर विपराङ्मुखोऽपि यत्तार्यस्य सुमतो निजपृष्ठलग्नान् युक्तं हि पार्थिव निपस्य सतस्तवैव चित्रं विभो यदसि कर्म विपाकशून्यः त्वं नाथ जन्म जलधर विपराङ्मुखोऽपि यत्तार्यस्य सुमतो निजपृष्ठलग्नान् युक्तं हि पार्थिव निपस्य सतस्तवैव चित्रं विभो यदसि कर्म विपाकशून्यः त्वं नाथ जन्म जलधर विपराङ्मुखोऽपि यत्तार्यस्य सुमतो निजपृष्ठलग्नान् युक्तं हि पार्थिव निपस्य सतस्तवैव चित्रं विभो यदसि कर्म विपाकशून्यः त्वं नाथ जन्म जलधर विपराङ्मुखोऽपि यत्तार्यस्य सुमतो निजपृष्ठलग्नान् युक्तं हि पार्थिव निपस्य सतस्तवैव चित्रं विभो यदसि कर्म विपाकशून्यः